कपोलेषु सखी जनस्य श्रीकण्ठ कान्ता हसिता कुराणा श्रीमन्ति कुर्वन्तु जगन्ति भासः
कीर्तिर्वलक्षा कुसुमायुधस्य स्वर्णाद्रिको दण्ड जयोन्नतस्य दरस्मित श्रीर्विरदास्य मातुर् राघीयसिम्भो वितनोत् भूतिम्
दच्छाच तुषार कल्पाः युष्माकमिच्छा विदधत्वमोघा विघ्नेश मातुर्दरहासलेशा
चन्द्रातपः कश्चन संप्रसन्नो महेश नेत्रातिथिदर्पणो नः मनोभिलाषं सफलीकरोतु महेश्वरी हासलव प्रकाशः
वलक्षवक्षोजपटाञ्चलेन चलेन सार्धं कृतकेलयोनः पुरत्रयाराति कलत्रहास भासो निरासं विपदां क्रियासुः
भूयासुराया सहराणि तानि स्मितानि भूदेश मृगीदृशो नः येषां त्विषो बिभ्रति दिग्वधूटि गण्डेषु कर्पूरपरागलीला
सीतानि तानि येषां मयूखै क्रियते सीताद्रे उद्यानवाटीषु नवो वसन्तः
आम्रेडितं भूषण चन्द्रभासा नासा विभूषा महसां विरुक्तिः पुरारि नारी स्मितकान्तयो मे पूर्णानि कुर्वन्तु समीहितानि
निर्माय विश्वालयमम्ब शर्व त्वया समं शिल्पविदासशिल्पी विहर्तुमिच्छन्नयि गोढुमैच्छन् नारीं भवन्ती पुरुषो भवं स्त्वा
दिव्यं दुपूलं धवलं दधान वेण्या फणीन्द्रोपमयालसन्ति प्रफुल्लराजीव विलोचना त्वं प्रपञ्चभर्तुर्नयनान्यहाशीः
प्रत्यङ्गबन्धं ज्वलदुत्तमं ते भुजङ्गराजोपमवेणीरूपम्
भूस्त्वमाध्यस्य मनोमदाय स चापि ते प्रीतिपदं बभूव न केवलं मां सकलस्य चासीद्दाम्पत्यबन्धस्य तदम्ब बीजम् प्रभुः सान्त्वयितुं समर्थः कर्तुं क्षमस्तर्जयितुं च शक्तः संरक्षतान् मां तव सर्ववन्दे करस्तुषारां सुहृता गृहीतः
चान्यया चिन्तयितुं न शक्यः त्वमेव सर्वस्य स एव दिम्बा दाम्पत्यमेवं युवयोस्तु सत्यम्
निजाद्वतं सेन्दुत इन्दुमन्यम् उत्पाद्यते शम्भु रथाद्वतं सं मुक्तामिवासौ शुभगात्रिरात्रिं प्राप्य त्वदीयां कबरीं चकासे
बभूमिथागेन्द्रगृहे यदा त्वं सचेश्वरस्तत्र चकारवासं विलोकमानस्तव
सवां साधयितुं प्रवृत्तो योगं प्रदत्तो मदनश्च कल्पे वशीति कीर्तिं गिरिशस्य भर्तुं तुभ्यं त्वपर्णेति यशश्च कर्तुम्
भर्तुः समनुग्रहाय विहाय यत्नं क इहाखिलाम्ब सम्बद्धमप्यर्थम् उपैतु जन्तुः
ज्वलत्कपर्दूदहनाङ्कभालः कपालमाली करिकृत्तिवासाः भुजङ्गभूषो भसिदाङ्गरागः पुष्पेषु वैरी परुषाट्टहासः
श्मशानवासी पुरुषस्त्रिशूली जहारते चेदनघाङ्गि चेतः दृष्टान्तमर्थो
रूपं पुरारेरथवा तदेतत् सेयं च चेष्टा समयान्तरेषु कान्तं वपुः कान्ततराश्च लीलास्त्वया समं खेलितुं येष धत्ते महेश्वरस्त्वा परिणीयलेभे यावात्मजौ द्वावनघाङ्गिमुख्यौ एकस्तयोर्भ्रां यति विश्वमत्तुं भूभृत्तटीराश्रयते बतान्यः संकीर्तयन्त्यो जगतां जनन्याः कल्याणवार्ता रमणीयकीर्तेः इमाः प्रमोदाय सतां भवन्तु सन्दर्भशुद्धा उपजातयो नः